एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। परराष्ट्र मन्त्री प्रदीप कुमार गेवाली गदति सीमा विवादस्य सम्बन्धे भारतेन गभीरेण भाव्यम्। बीबीसी प्रसारणस्य हिन्दी भाषा कार्यक्रमेण सह ह्यो वितायाम् अन्तर्वार्तायाम् परराष्ट्र मन्त्री गेवाली अवदत् नेपाल भारतयोर्मध्ये सांस्कृतिक सामाजिकश्च सम्बन्धो विद्यते इत्यतः एतस्मिन् विषये भारतेन संवेदनशीलेन भाव्यम्। नेपालेन सीमा विवाद सम्बद्धायै सचिवस्तरीय वार्तायै प्रस्तावितम् सदपि अधुनावधि भारतेन कापि प्रतिक्रिया ज्ञापिता नास्ति। काष्ठमण्डपोपत्यकायाम् अष्टाशीत्यधिक शतत्रयेण सहितेषु ह्य आराष्ट्रम् सहस्रे विंशत्यधिक शते च जनेषु कोरोना संक्रमणम् पुष्टीभूतम् वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य गतदिवसीय नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डाक्टर जागेश्वर गौतमः विंशत्यधिक शतत्रय महिलाः अष्टशतम् पुरूषाश्चेति कृत्वा सहस्रे शते विंशत्यां च जनेषु संक्रमणम् पुष्टीभूतम् अस्तीति अज्ञापयत्। एतदनुसारेण नेपाले अधुनावधि कोरोना विषाणुना संक्रान्तानां जनानां संख्या 141,649 च प्राप्तास्तीति मन्त्रालयेन ज्ञापितं वर्तते। ह्यः 100,112 च जनाः संक्रमणात् मुक्ताश्च अभवन्। इदानीम् संक्रमणमुक्तानां जनानां समग्र संख्या 23,792 प्राप्तेति प्रवक्ता डाक्टर गौतमः अबोधयत्। कोरोना संक्रमणस्य कारणेन ह्यः 6 पुरूषाः 6 महिलाश्चेति कृत्वा 12 जनाः अम्रियन्त। एतदनुसारेण नेपाले कोरोना विषाणोः संक्रमणस्य कारणेन मृतानां जनानां पश्चात्तनी संख्या 51,50,002 प्राप्ता वर्तते। धार्मिक कार्यक्रमाणां सम्पादनाय प्रविधेः माध्यमम् अवलम्बितुम् अनुरुन्धानः प्रवक्ता डाक्टर गौतमः भौतिकरूपेण उपस्थित्य बाध्यावस्थायां सत्यां स्वास्थ्य सुरक्षायाः मापदण्डम् अनिवार्यतः अवलम्बितुम् परामृशत्। नियमित संचार संक्षेप कार्यक्रमे कोरोना संक्रमणस्य कारणेन आवश्यकतायाः आधारेण च अनुबन्ध सेवायां कार्यरतानां स्वास्थ्यकर्मिणाम् अनुबन्ध सेवावधिम् आगामिनं पौष मासान्तं यावत् वर्धयितुं निर्णीतमिति ज्ञापितम्। छात्रवृत्त्यनुबन्ध सेवायां कार्यरतानाम् अनुमतिं प्राप्य स्वास्थ्य संस्थासु नियुक्तानां च चिकित्सकानां स्वास्थ्यकर्मिणां च अनुबन्ध सेवावधि पौष मासान्तं यावत् वर्धापितोस्तीति मन्त्रालयस्य प्रशासन महाशाखा प्रमुखः रघुराम विष्टः ज्ञापितवान्। काष्ठमण्डपोपत्यकायां निषेधाज्ञायाः अवधिः सप्ताहाय वर्धापितो वर्तते। गृहमन्त्रालयेन सह परामृश्य उपत्यकायाः काष्ठमण्डप भक्तपुर ललितपुराणां प्रमुख जनपदाधिकारिणां ह्यस्तनोपवेशेन कतिचित् सेवाः सहजीकृत्य अस्यैव भाद्रस्य 24 दिवसस्य रात्रौ 12 वादनं यावत् निषेधाज्ञा क्रियान्विताऽस्तीति ललितपुरस्य प्रमुख जनपदाधिकारी नारायण प्रसाद भट्टः अज्ञापयत्। प्रमुख जनपदाधिकारी भट्ट औषधानां जलापूर्तेश्च व्यवसाय 24 घण्टासु अन्येषां खाद्यवस्तु दुग्ध व्यञ्जन फल मांसानां व्यवसायाश्च प्रातः 11 वादनं यावत् सञ्चालयितुं शक्यन्ते इति व्यवस्थापितास्तीति अज्ञापयत्। अत्यावश्यक कार्याय काष्ठमण्डपः आगन्तव्यश्चेत् पीसीआर परीक्षणम् अनिवार्यं कृतमस्ति। एवमेव ह्यस्तन निर्णयानुसारेण अत्यावश्यक सेवाभिः सह सम्बद्धाः उद्योगाः उत्पादनशालाश्च सञ्चालयितुं शक्यन्ते। प्रतिनिधिसभायाः राज्यव्यवस्था सुशासन समित्या कोविड 19 संक्रमणस्य निरोधन नियन्त्रणयोः कृते समुदायस्तरे स्थितान् निवृत्त स्वास्थ्यकर्मिणः जनस्वास्थ्यविदः विभिन्न सामाजिक कार्येषु संलग्नाः संघ संस्थाश्च परिचालयितुं प्रभावकारी योजनां निर्माय कार्यं विधातुं परामृष्टमस्ति। श्रव्यदृश्य प्रविधेर्माध्यमेन सम्पन्नेन समितेः उपवेशन कोविड 19 संक्रान्त जनानां कृते गृहैकान्तवासे निवसनस्य व्यवस्थायाः कारणेन सर्वैः संक्रान्त जनैः यथासमयं स्वास्थ्यकर्मिणां परीक्षणे प्रापणं निरीक्षणम् अनुगमनं च सहजं न भवन्तीति हेतोः अत्र गभीरो भवितुं सर्वकारः परामृष्टोऽस्तीति सभापतिः शशिश्रेष्ठः अज्ञापयत्। गृहमन्त्रालयेन कारावासानां बन्दीजनेषु कोविड 19 संक्रमणस्य प्रसरणं रोद्धुम् उच्च सावधानता अवलम्बितास्तीति ज्ञापितं वर्तते। विभिन्नानां कारागाराणां बन्दीजनेषु कोविड 19 संक्रमणं संयोज्य प्रकाशितानां टिप्पणी प्रतिक्रिया समाचारणम सम्बन्धे गभीरम ध्यानाकर्षणम सम्भूतम अस्तीति ज्ञापयता मन्त्रालयेन संक्रमण प्रसरणस्य निवारणाय पूर्व सावधानता अस्तीति स्पष्टीकृतम वर्तते। मन्त्रालयेन गतदिने विज्ञप्तिम प्रकाश्य कारागारेषु अतिरिक्त संकटम निवारयितुम् कोरोना विषाणोः निरोधन नियन्त्रणयोः कृते यथासम्भवम् प्रयासम् विधातुम् संक्रान्तानाम् बन्दीजनानाम् आवश्यकोपचारस्य व्यवस्थाम् विधातुम् च प्रहरी प्रधान कार्यालयस्य कारागार व्यवस्थापन विभागस्य च माध्यमेन सर्वे कारागारा प्रमुख जनपदाधिकारिणश्च आवश्यकम् निर्दिष्टाः सन्तीति ज्ञापितम् वर्तते। स्वास्थ्य जनसंख्या मंत्री भानुभक्त ढकालः भासते स्तरत्रयस्यैव सर्वकारैः मिलित्वा कोरोना संक्रमणस्य निरोधन नियन्त्रणयोः कार्याणि अतिरिक्त प्रभावकारिणी विधातव्यानि। प्रदेश सर्वकाराणां सामाजिक विकास मन्त्रिभिः सह विहिते सांगणकीये ह्यस्तनोपवेशे मन्त्री ढकाल अवोचत् संक्रमणस्य निरोधनाय विहितानि कार्याणि अतिरिक्त प्रभावकारिणी व्यवस्थितानि च विधातुं स्तरत्रयस्यैव सर्वकारैः समन्वयात्मक कार्याणि विधातव्यानि। असौ अगदत् जनस्वास्थ्य मापदण्डस्य पालनायै सञ्चेतनायाः कार्याणि प्रभावकारिणी विधातुम् स्थानीय सर्वकारैः विशेष भूमिका निर्वोढव्या। शिक्षा विज्ञान प्रविधि मन्त्री गिरिराजमणि पोखरेलः कथयति सर्वेषां स्तराणां शैक्षिक सत्रस्य रक्षणत्वेन शैक्षिक कार्यतालिका निर्मास्यते। गतदिवसीयायां सङ्गणकीयायाम् अन्तरक्रियायां मन्त्री पोखरेलः कोरोना संक्रमणस्य कारणेन शिक्षणम् असञ्चालितं सदपि पाठ्यभारं न्यूनीकृत्य पूर्वनिर्धारित समयावधौ एव शैक्षिक सत्रं पूरयिष्यते इत्यवोचत्। वैकल्पिक शिक्षण सहजीकरण निर्देशिकां परिमार्ज्य एतदपि मूल्यांकन परीक्षयोः अभिन्नम् अङ्गं विधास्यते इति चर्चयन् मन्त्री पोखरेल अवदत् वैकल्पिक शिक्षणाय सर्वकारेण पृथक् निर्वाधं शैक्षिक टेलीविजनं प्रसारणं विधातुं पूर्वकार्यं विहितमस्ति। सर्वकारेण कोरोना विषाणोः संक्रमणं समुदायस्तरे प्रसृतम् अस्ति न वेति विषये अध्ययनं विधास्यते। संक्रमणस्य सर्वेषां समूहानां जनेषु अभिहित यात्रासु व्यक्तिष्वपि दर्शनानन्तरं स्वास्थ्य जनसंख्या मन्त्रालयस्य सहकारी महामारी संक्रामक रोग नियन्त्रण महाशाखया समुदाय संक्रमणं प्रसृतम् अस्ति न वेति विषयम् अध्येतुं प्रारब्धम् अस्ति इति महाशाखायाः निर्देशक डा वासुदेव पाण्डे अज्ञापयत् इति समाचाराः।